आरम्भं कुर्मः. क्षम्यताम्. ॐ सहना भवतु, सहनो भुनक्तु, सह वीर्यं तेजस्विनावधीतमस्तु विषावहै. ॐ शान्ति शान्ति शान्तिः. विमला भगिनी अद्य न आगतवती, वैना भगिनी अपि न आगतवती. अस्तु, आरम्भं कुर्मः. प्रथम वयं परिचय कुर्मः. अनु भगिनी कृपया परिचय ददातु. अहं आरम्भं कुर्मः. अहम् अनुराधा अस्मि. पूर्वमेव अहं सॉफ्टवेयर यंत्रज्ञ आसम्. इदानीं श्रूयते वा?
आम्.
अस्तु, मम नाम अनुराधा. अहं पूर्वं सॉफ्टवेयर यंत्रज्ञा अस्मि आसम्. इदानीम् अहं संस्कृतं पाठयामि. गृहे एव तिष्ठामि. मम पुत्री कार्यं करोति, मम पुत्रः अपि कार्यं करोति लंदन नगरे. अहं यूके देशे वसामि. अस्तु, अनु भगिनी कृपया परिचय ददातु तस्याः.
हरि ओम्. मम नाम अनु इति दृश्यते वा?
अनु भट्
तत्र मम नाम अनन्या भट् इति. अहं बेङ्गलूरुनगरे वसामि. अहं प्रथमं किञ्चित् संस्कृतं पठितवती. अन्य किं वक्तव्यं भगिनि? परिचयं इत्युक्ते मम पतिः सङ्गणकतन्त्रज्ञः अस्ति बेङ्गलूरुनगरे एव. अहं कार्यं न करोमि, गृहिणी अस्मि.
गृहिणी अस्मि. धन्यवादः भगिनि. पूर्वमेव के परीक्षा दत्तवती?
हा, किञ्चित् आं दत्तवती. बहु पूर्वं
के का परीक्षा दत्तवती?
अस्माकं मठस्य परीक्षा एव. ते पाठयन्ति आसं सम्यक् वा? किं का अहम् इदानीं तु विस्मृतवती. कानिचन दोषानि अस्ति चेत् सम्यक् करोतु भगिनि. ते तु उपासना आराधना साधना इत्युक्ते चत्वारि परीक्षाणि सन्ति. किन्तु अहं केवलं द्विपरीक्षामेव कृतवती, उपासना आराधना, तदेव. तदनन्तरं न कृतवती.
समीचीनं भगिनि, धन्यवादः.
स्थगितवती.
धन्यवादः. अस्तु, सङ्गीता भगिनी परिचय ददातु सर्वेषां कृते.
अहं सङ्गीता. अहं मुम्बैनगरे वसामि. पूर्वतने अहं वैज्ञानिक आसम्. गत मासे सेवानिवृत्त अभवम्। गत सः मासे षट् मासे अहं संस्कृतं पठामि। पूर्वतः अहं संस्कृतं पठामि। अनुराधा भगिनी मां एकमात्र शिक्षक शिक्षिका अस्ति।
धन्यवादः भगिनी, धन्यवादः। अस्तु, ज्योत्स्ना भगिनी कृपया परिचय ददातु।
मम नाम ज्योत्स्ना, अहं विशेष बालिका अध्यापक अस्मि। मम दो पुत्रे अस्मि, द्वे पुत्र द्वादयं पुत्र
पुत्रद्वयम् अस्ति
पुत्रद्वयम् अस्ति।
भगिनी गृहिणी अस्ति वा?
सोरि,
भगिनी गृहिणी अस्ति वा?
अहं विशेष बच्चे बालका अस्मि।
हरि ओम्
वदतु।
अहं मम नाम ज्योत्स्ना, अहं विशेष बालिका अध्यापिका अस्मि। मम
हेलो
हेलो वेयर इज दिस म्यूजिक कमिंग फ्रॉम? हेलो
हेलो
या आई डोंट नो वेयर द म्यूजिक इज कमिंग फ्रॉम।
Just a second, you called me on WhatsApp. Is
that correct? I can't hear you, Bhagane.
You called me
Let
on WhatsApp.
Let everybody mute, then there won't be issue.
No, can you all hear the music?
Yes, that
you
was somebody
on WhatsApp.
Ah, okay.
What's your name?
Mama naam Jyotsna.
Bhagini, you called me on WhatsApp.
Sorry?
Hello?
Hello?
Yeah, it's better now, is it?
Little bit better. Yeah.
Okay. Shammetam. अस्तु,
मम द्वयं पुत्रे अस्ति,
पुत्रद्वयम् अस्ति,
पुत्रद्वयम् अस्मि
अस्ति। पुत्रः प्रथमपुरुषः अस्ति, पुत्रद्वयम् अस्ति। अहम् अस्मि, पुत्रद्वयम् अस्ति
अस्ति। ओके,
ओ पुत्रौ स्तः,
ओ पुत्रौ द्वः,
नो द यु डोंट नीड टू से द्वः, पुत्रौ स्तः।
ओके, पुत्रो सह, ऑल राइट।
अस्तु, धन्यवादः।
एंड व्हाट यू कॉल स्पेशल नीड्स चिल्ड्रन, विशेष बालकाः, नो?
हां, विशेष बालकाः।
यस, थैंक यू।
द्वियांग, द्वियांग।
ओके,
नमस्ते भगिनी।
हां, नमस्ते भानुमती भगिनी, कृपया परिचय अपि ददातु।
अहम् भानुमती वदामि।
भवती कुत्र वसति? न्यून छात्राः,
अहं चेन्नै नगरे वसामि।
भवती संस्कृत कथा पठितवती किल पूर्वं?
किञ्चित् किञ्चित्।
अस्तु, धन्यवादः भगिनी। श्रीराम महोदय, कृपया परिचय ददातु।
सर्वेभ्यो नमो नमः। मम नाम श्रीरामः, अहं पूर्वे बेङ्गलूरुनगरे मम विरणम् आसीत्. अहं साफ्ट्वेर् तन्त्रज्ञानः. मम पुत्रीद्वयम् अस्ति. अहं संस्कृतपाठं बहूनि वर्षाणि गता पठितवान्. इदानीम् अधिकाधिकं
पूर्वं पठितवान् किल भवान्? संस्कृतं पूर्वं पठितवान् अस्तु. परमेश्वरन् महोदय स्वागतं. कमलभगिनी स्वागतम्. इदानीं ज्योत्सना भगिनी अन्य अनुभगिनी क्षम्यतां, नाम विस्मृतवती. श्रीराम महोदय अपि अनन्या भगिनी. श्रीराम महोदय अत्र प्रथमवारम् आगताः. तस्याः कृते तेषां कृते कृपया परिचय ददातु. परमेश्वरन् महोदय कृपया परिचय ददातु.
क्षम्यतां महोदय, किञ्चित् अन्तर्जालस्य दोषः अभवत्, ततः कारणात्
मम परिचयः अभवत्. हलो, शृणोति वा?
श्रूयते.
मम नाम परमेश्वरः, अहं बम्बैनगरे वसामि. अहं वर्गे बहूनि जानामि अस्मि. अभ्यासपुस्तकस्य अभ्यासं कृतवन्तः. इदानीं पुनर्वचनं कुर्मः.
अहम् अभ्यासपुस्तकस्य पठितवन्तः, अभ्यासं कृतवन्तः. अस्तु, धन्यवादः महोदय. परमेश्वरन् महोदय तु बहु समीचीनं संस्कृतं जानाति. अत्र अङ्कुशभगिनी अपि, अनन्याभगिनी अपि सम्यक् रूपेण संस्कृतं जानाति. कमलाभगिनी इदानीम् अत्र नास्ति, अद्य नास्ति. सा अपि संस्कृतं जानाति. कमलाभगिनी कृपया परिचय ददातु सर्वेषां कृते.
अहं कमला सिंह
अस्मि.
अहं संस्कृत न जानामि.
किञ्चित् जानामि, सम्यक् रूपेण न
जानामि. किञ्चित् जानामि. What do you say? I am not getting time to.
Na, aham Vimala asmi.
Na, bhagini.
Samay na asti.
Vilambe na agatvati.
I got confused. I got into another link. That's why I could not able to join. When I spoke with Sangeeta, I came to know I made a mistake.
भगवती एव मम दूरवाणीं कृतवती.
दट्स् वाट्
चिन्ता मास्तु. कृपया कमला भगिनी वास् गिविङ्ग् द परिचय.
समये न सति कार्यालयं बहु काम् अस्ति.
आदिनं कार्यं करोमि, अनन्तरं समयः एव नास्ति.
नास्ति, ओके, समयं नास्ति. सो नो रिविजन्, व्हाट डू यू से?
अभ्यासं न कृतवती. अभ्यासस्य कृते समयः नास्ति, न लभ्यते.
अभ्यास कृते समयः न लभ्यते. अभ्यासस्य कृते समयः न लभ्यते. संस्कृत किञ्चित्.
धन्यवादः भगिनी, बहु समीचीनं, बहु उत्तमं, धन्यवादः. अस्तु, विमला भगिनी, कृपया सर्वेषां कृते परिचय ददातु. अस्ति वा भगिनि? भगिनी सर्वेषां कृते परिचय ददातु, अन्म्यूट् कृत्वा.
क्षम्यताम्, अहं, मम नाम विमला, अहं गृहिणी अस्मि. अहम् अनुराधा भगिन्याः कक्षायां गत सप्त अष्ट मासात् पर्यन्तम् अभ्यासं करिष्यामि, करोमि, कृतवती.
षट् मासपर्यन्तम्?
षट् मासपर्यन्तं संस्कृतस्य अभ्यासं कृतवती.
धन्यवादः भगिनी. विमला
भगिनी, वयं सम्यक् पाठय अनुराधा भगिनी वयं सम्यक् पाठयन्ति.
धन्यवादः भगिनी. अस्तु, अहं न जानामि अद्य कथम् आरम्भं कुर्मः, किन्तु अहम् एकं कथा स्वीकृत्य आरम्भं कुर्मः. तर्हि अहं सर्वेषां कृते काकाः आवश्यकता तेषाम् अस्ति, तर्हि अहम् आरम्भं कुर्मः. मम पटलः दृश्यते वा?
क्षम्यतां, मह्यं भवत्याः स्वरं न श्रूयते. प्रापर्लि, ऐ केनाट् हियर् प्रापर्लि, सम् इस् ब्रेकिङ्ग्.
किञ्चित् इण्टर्नेट् प्राब्लम्.
ऐ केन् हियर्
सम्बडि इस् हेविङ्ग् दिन् हेड्फोन्स्, इफ् दे हाव् लैक् दट् आल्सो वि गेट् प्राब्लम्.
ओके, सो वर्षाकाले काका भवति, एकं कथा स्वीकृत्य अहम् आरम्भं कुर्मः. मम पटलः दृश्यते वा? स्क्रीन् शेर् दृश्यते वा? एकमेकं वाक्यं स्वीकृत्य कृपया पठन्तु. अहम् आवयामि. अनन्या भगिनी, कृपया प्रथम वाक्यं पठतु.
मेघाः भवन्ति.
वर्षाकाले गगने मेघाः भवन्ति. सङ्गीत भगिनी,
अग्रे गच्छामः
वा?
समीचीनं. ज्योत्स्ना भगिनी,
सोदामिन्यः Sakuranti.
So Daminyaha Puranti.
Swaranti.
Astu, dhanyavada. Bhanumati Bhagini.
Sarvatra Jalam Bhavati.
Parmeshwaran Mode.
Grame Margaha Pankamayaha Bhavanti.
धन्यवाद कमला भगिनी
वर्षा काले मंडूकाः रटन्ति
विमला भगिनी विमला भगिनी म्यूट अनम्यूट करो तो
मयूराः सॉरी वर्षाकाले मण्डूकाः
न श्रूयते
तन्ति रटन्ति वर्षाकाले मण्डूकाः रटन्ति मयूराः नृत्यन्ति वृक्षाः पल्लविताः भवन्ति
भगिनी न श्रूयते
न श्रूयते किम्
ऐ कुड् हियर् अहं शृणामि शृणामि
शृणोमि
मयूराः नृत्यन्ति वर्षाकाले मण्डूकाः रटन्ति मयूराः नृत्यन्ति वृक्षाः पल्लविताः भवन्ति
धन्यवादः भगिनी अस्तु श्रीराम महोदय पुनः एकं वाक्यं पठतु
बीजानि अङ्कुरितानि भवन्ति क्षेत्राणि जलपूर्णानि सरस्य समृद्धानि च भवन्ति
सस्य समृद्धानि च भवन्ति धन्यवादः अनन्या भगिनी
आं महोदय अग्रे
पठामि
वा कृषकाः कृषिं कुर्वन्ति
कृषकाः कृषिं कुर्वन्ति
कुर्वन्ति अस्तु क्षेत्रेषु ते क्षेत्रेषु बीजानि वपन्ति
ते क्षेत्रेषु बीजानि वपन्ति
वपन्ति
सङ्गीता भगिनी
सस्यानि वर्धयन्ति
वर्धयन्ति अस्तु एकम् अन्यवाक्यं पठतु
ते प्रसन्नाः भवन्ति
ते प्रसन्नाः भवन्ति
भगिनी क्षम्यतां स्क्रीन् स्क्रीन् यू हैव टु मूव् अप्
No.
Story, I can't see the story.
Drishtum, aham drishtum
shaknoti.
Shaknomi.
Aham drashtum na shaknoti.
Bhavati durvani
padde. Aham drashtum na shaknomi.
Bhavati durvanyam upayujya.
Aham.
Pashyati va.
Durvanyam eva pashyami.
दूरवाण्यां सम्यक् रूपेण न दृश्यते अस्तु ज्योत्स्ना भगिनी नेक्स्ट्
ते प्रसन्ना भवन्ति वर्षकाले जलाशयाः पूर्णाः भवन्ति
धन्यवादः भगिनी भानुमती भगिनी भवन्ति अन्ये परमेश्वर महोदय नेक्स्ट्
वर्षकाले जनाः छत्रं धृत्वा गच्छन्ति बालकाः नौकाः निर्माय कुल्यासु प्लावयन्ति.
समीचीनं, धन्यवादः. कमला भगिनी,
वृष्टिकारणतः देशस्य धान्यसमृद्धिः अधिका भवति. वृष्टिः देशस्य जीवननाडी अस्ति.
समीचीनं, धन्यवादः. अस्तु, अत्र वर्षाकाले गगने मेघाः भवन्ति, ते गर्जन्ति. के के क्रियापदानि सन्ति तत्र? क्रियापदानि सन्ति भवन्ति, गर्जन्ति, स्फुरन्ति, भवति, भवन्ति, रटन्ति, नृत्यन्ति. तादृशः क्रियापदानि तत्र सन्ति. कुर्वन्ति, वर्धयन्ति, भवन्ति, अन्य प्लावयन्ति, अस्ति, भवति, तत्र क्रियापदानि अस्ति.
प्लावमन्ति किम् अर्थम्?
अस्तु,
प्लावयन्ति
बालकाः नौकाः निर्माय कुल्यासु प्लावयन्ति.
कुल्यागतं
किम्? निर्माय बालकाः नौकाः निर्माय कुल्यासु प्लावयन्ति.
देर् आर् टु मीनिङ्ग्स् करेक्ट्. प्लावयन्ति उष्णजलेन प्लावयति, लैक् दट् वन् सेण्टेन्स् ऐ हर्ड्. मीन्स् शी गिव्स् मी बात् इन् हाट् वाटर् अण्ड् हियर् दे आर् प्लेयिङ्ग् इन् द वाटर्, मेकिङ्ग् बोट्स् अण्ड् प्ले इन् द वाटर्. करेक्ट्.
सो काण्टेक्स्ट् मे नार्मलि इट्स् इन् द काण्टेक्स्ट् प्लावयन्ति, प्लावयति, प्लावयन्ति. पलायनं कुर्वन् हनुमान् समुद्रं पलायनं कृतवान्. कुल्यासु वो जो लाइक गड्ढे होते छोटे छोटे, लाइक कुल्यासु
पॉन्ड लाइक थिंग. करेक्ट, पॉन्ड.
कुल्यासु
वी यूज्ड टू डू लाइक दैट. वी यूज्ड टू मेक बोट्स एंड प्ले प्ले इन वाटर.
कुली सप्तमी विभक्ति अत्र अस्ति. कुल्यासु so which with I mean now we've done that a lot of you know already, so I'm just going to ask which vibhakti each word is. For example, varsha kale gagne megha bhavanti
saptami varsha kale
megha bhavanti te garjanti te. संगीता भगिनी,
ते इज प्रथमा विभक्ति एंड राइट बहुवचन. बहुवचन
ओके. सो लेट मी आस्क मी for any kriyapadam that is not clear. Bhavanti, garjanti, sphuranti, vardayanti, vapanti.
Bahuvachanam, all are bahuvachanam.
All are bahuvachanam. Okay, so in this vrishtihi deshasya jivan nadi asti. एकवचनम् अस्ति. वृष्टिः अस्ति. वृष्टि का अस्ति? वृष्टि जीवन नाडी अस्ति
भवति आल्सो सिंगल वचन एक वचन
सो व्हाट वी कैन डू वाक्य किम् अस्ति वाक्ये क्रियासूचक पदं क्रियापदं सन्ति क्रियासूचकपदं क्षम्यतां म्यूट् करोतु सर्वे कृपया बहु कोलाहलम् अस्ति वाक्ये क्रियासूचकं पदं क्रियापदमस्ति कर्तरीसूचकं पदं कर्तरीपदमस्ति यत् कर्म सूचयति तत् करम्पदं करम्पदस्य द्वितीयविभक्तिः भवति कर्तृपदमस्ति क्रियापदमस्ति करम्पदमस्ति करम्पदं द्वितीयविभक्तिः भवति कथं बालकः पाठं पठति बालिका मालां रचयति बालिका मालां रचयति सः फलं खादति अत्र सः कर्तृसूचकपदमस्ति कर्तृपदमस्ति फलं कर्मपदमस्ति खादति क्रियापदमस्ति कर्मकरः सिञ्चति कर्मकरः सिञ्चति कर्मकरः कं सिञ्चति वृक्षः सिञ्चति वृक्षः कादृशः विभक्ति अस्ति कादृशः पदमस्ति
वृक्षः
करमकरः
करमकरः वृक्षं सिञ्चति अत्र द्वितीया विभक्ति भवति
वृक्षं कादृशः पदमस्ति सज्जनः धर्मं पालयति भानुमती भगिनी कृपया वदतु कीदृशः पदम् अस्ति सज्जनः
सज्जनाः द्वितीयपदं
धर्मं पालयति सज्जनः कर्तरीपदमस्ति कर्मपदमस्ति अहं धन्यवादः भगिनि ज्योत्स्ना भगिनि कृपया उत्तरं ददातु अहं शब्दं शृणोमि
उत्तम पुरुष एकवचन
शब्दं कीदृशः पदमस्ति
सॉरी भगिनि
शब्दं कीदृशः पदमस्ति अहं शब्दं कृपया अहं शब्दं शृणोमि
उत्तम पुरुष एकवचन
न मम प्रश्नः अस्ति शब्दं पदं कीदृशः अस्ति अहं शब्दं शृणोमि अहं कर्तृसूचकपदमस्ति अहं कर्तृपदं सूचक अस्ति शब्दं करम्पदं सूचक अस्ति शृणोमि क्रियापदम् अस्ति क्रियासूचकं पदमस्ति शृणोमि क्रियासूचकं पदमस्ति शब्दं करं पदं कर्म सूचयति कर्मपदमस्ति शृणोमि क्रियापदम् अहं कर्तृपदं शब्दं कर्मपदम् अवगतं किम्
Sorry, Pagni, I didn't understand.
Okay, I'll tell in English what I'm trying to say. Say, Balakaha patham patati. Balakaha, Balaka is the karta. He's doing the work. Balakaha patham patati. Balakaha patham patati. Balakaha kartri padamasti. Patati kriyapadam. Patati is the verb. So, kriyapadam.
Yeah.
Patham, karam padam.
Object.
Object. Karam padam. Karam padam asti. So, aham, shabdam shrunomi, atra aham, kartri padam asti, shabdam, kriyapadam asti, kshamitam, karam padam asti, shrunomi, kriyapadam asti. Avgatam kim?
Understood now.
Avgatam.
So, give me one sentence, Bhagni, again.
Astu. I will come back.
Okay, thank you.
Sa itihasam smarati. Sa itihasam smarati. Bhanumati Bhagni, kripya vadatu.
Sa Bhagni.
Sa itihasam smarati.
सा कर्तृपदम् इतिहासं कर्मपदं वदति पठति
क्रियापदं समीचीनं धन्यवादः भगिनि अस्तु नैना भगिनी कृपया उत्तरं ददातु जनकः पत्रिकां पठति
जनकः कर्तृपदं पठति इस् क्रियापदं पत्रिका पठति इस् क्रियापदं पत्रिका इस्
पत्रिकां
पत्रिकां
कर्मपदम् अस्ति अस्तु धन्यवादः भगिनि कमला भगिनी उत्तरं ददातु माता पुत्रीं बोधयति
माता कर्तरि पदं पुत्री बोधयति क्रियापदं पुत्रीं कर्मपदं
समीचीनं धन्यवादः भगिनि श्रीराम महोदय एकम् उत्तरं ददातु सेविका आपणं गच्छति सेविका आपणं गच्छति
सेविका कर्तरिपदम् अस्ति आपणं कर्मपदम् अस्ति सेविका आपणं गच्छति गच्छति क्रियापदम् अस्ति
समीचीनं धन्यवादः महोदय बहु समीचीनं अस्तु एकम् अन्ये क्रियापदान् पदं स्वीकृत्य अहं वाक्यम् वदामि रमेशः प्रतिदिनं पत्रिकां पठित्वा रमेशः प्रातः पत्रिकां कवितां ग्रन्थं च पठति प्रातः पत्रिकां कवितां ग्रन्थं च पठति अत्र पत्रिकां कीदृशः शब्दः अस्ति कवितां कीदृशः शब्दः अस्ति ग्रन्थं कीदृशः शब्दः अस्ति सर्वेषां कर्मपदानि सर्वे करं पदानि सन्ति So you can use more than one karmapadam in one sentence. So it doesn't have to be one only. So saha prataha patrikam kavitam grantham cha patati. So ekam vakyam rachatu ekam ekam. We'll start with Vimla Bhagini. Bhagini, multiple karampadam swikritya, adhikam karampadam swikritya ekam vakyam rachatu.
Ganeshah odan pratidinam odanam kvatitam vyajanam saladam cha kadati.
Kadati
Ganeshah.
Ganesha
kadati.
Samichnam, dhanyavad bhagini, bahu samichnam. Astu Parmeshwaran mahode ekam vakyam vadatu kripya. Sarvesham krite.
Saha pratidinam apanam karyalayam vittakosham cha gacchati.
Samichnam, dhanyavad mahode. Astu Shridam mahode ekam vakyam vadatu.
नमो नमः. अहं प्रातःकाले काफीं पीत्वा नित्यपत्रिकां पठामि.
अधिकं कर्मपदानि स्वीकृत्य एकं वाक्यम् आवश्यकं. रमेशः प्रतिदिनं देवं जनकम् अग्रजम् आचार्यं च नमस्करोति. अत्र देवं जनकम् अग्रजम् आचार्यं तानि पदानि सर्वाणि करमपदानि सन्ति. सीता ग्रन्थं सुधाखण्डं स्यूतं दण्डं च नयति. ग्रन्थं सुधाखण्डं स्यूतं दण्डं सर्वाणि पदानि अत्र एव करमपदानि सन्ति. अनन्या भगिनी कृपया एकं वाक्यं रचतु.
सीता आलुकं कारवेल्लं अन्य किं टमोटः अस्ति वा? टमोटं तु
रक्तफलं
टमोटो अपि अस्ति वा महोदय? टमोटः इति अस्ति वा टमोटो?
रक्तफलं टमेटो न जानामि. रक्तफलम्
मरीचिका
टमोटः इति अहं कुत्रापि पठितवती.
अस्तु
भगिनि, वृन्ताकम् अस्ति.
अस्तु भगिनि, धन्यवादः. सङ्गीता भगिनि,
स्यूते लेखन्या धनं जलं च अस्ति.
स्यूते
लेखन्या धनं जलं
लेखनीं
लेख अच्छा ओके ओके लेखनी
द्वितीय भक्ति प्रयोग भगिनी.
हाँ लेखनीं लेखनी लेखनीं धनं जलं च अस्ति.
च अस्ति, धन्यवाद. धन्यवाद भगिनी, समीचीनं. ज्योत्स्ना भगिनी,
बालिका प्रतिदिनं चरति क्रीडति धावति भोजनं च करोति.
समीचीनं. सर्वे पण्डिताः अत्र आगतवन्तः. समीचीनं भगिनि. अस्तु कमला भगिनि, कमला भगिनि अन्म्यूट् करोतु. न श्रूयते.
सीताः रोटिकां दालं एण्ड्
शाकं सब्जि विकाल् शाकं खादति
च खादति
च खादति
समीचीनम् अस्तु नैना भगिनि
यस् 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 अहं प्रतिदिनं षड्वादने उत्तिष्ठामि तद् अनन्तरं पाकशालां गच्छामि पाकं करोति च
अस्तु क्रियापदानि तत्र एकम् भवती षड्वादने उत्तिष्ठति तत्र कथं पदं न एव अस्ति
तदनन्तरं स्नानं करोमि
स्नानं क्रियापदमस्ति
स्नानं तदनन्तरं पाकशालां गच्छामि
समीचीनं
पाकं पचयति
समीचीनं धन्यवादः भगिनि अस्तु अनन्तरं भवती किमर्थं पाकशालाम् आगतवती किमर्थम् आगतवती ह्यः भवती किमर्थं विद्यालयं न आगतवती किमर्थं पाकशालाम् आगतवती प्रतिवर्षं मम पितामह देवीपूजा करोति किमर्थं प्रतिवर्षं मम पितामह पूजां करोति ग्रामे भवती किमर्थं गतवती किमर्थम् अहं किमर्थं पठामि अहं किमर्थं पठामि अहं किमर्थं पाकशालां गच्छामि किमर्थं विद्यालयं न गच्छामि पितामहः किमर्थं देवीपूजां करोति अहं ग्रामे किमर्थं गतवती आपणं किमर्थं गतवती शाकां किमर्थं कर्तयामि किमर्थम् अतः एकं सप्तककारेषु एकं पदमस्ति अन्वयः अव्ययः अस्ति एकः प्रश्नवाचकशब्दः अस्ति तत् कः सूचयति पर्पस् सूचयति किमर्थम् आङ्ग्लभाषा इति उक्ते वाय् purpose what is the purpose what is why something is being done so just for my sake for just to understand how much everybody knows so ekam ekam vakyam vadatu kripya shri ram mode ekam kim artham upayojya vakyam vadatu ekam prashna vachak shabdah anantaram ekam uttram dadatu
अहं किमर्थं संस्कृतकक्ष्यायां जायिन् कृतवान् उत्तरं संस्कृतं पाठम् अधिकं जानामि
ज्ञानार्थं
ज्ञातुं ज्ञानार्थम् एव संस्कृतकक्ष्यायां आगतवान्
आगतवान् समीचीनम् अहं किमर्थं संस्कृतकक्षायाम् आगतवान् अहं ज्ञानार्थं संस्कृत अधिक संस्कृतज्ञानं वर्धनार्थम् आगतवान्
धन्यवादः
धन्यवादः महोदय अनन्या भगिनी
आं महोदय अहं किमर्थं छत्रं नीत्वा बहिः गतवती वर्षा आगच्छति इति भूत्वा अहं छत्रं नीत्वा बहिः गतवती
समीचीनं किमर्थं
वर्षा आगच्छति इति चिन्तयित्वा
वृष्टिः भवति इति अहं
वृष्टिः भवति चिन्तयितुम्
अतः अहं छत्रं नीत्वा आगतवती समीचीनं भगिनि सङ्गीता भगिनि
त्वं किमर्थम् आपणं गच्छसि अहं शाकान् क्रीणार्थं गच्छामि
समीचीनं ज्योत्स्ना भगिनि
अहं किमर्थं ध्यानं करोति अहम् आरोग्यधर्म ध्यानं करोति
अहं किमर्थं ध्यानं करोमि अहम् आरोग्यार्थं ध्यानं करोमि द्वितीयविभक्ति ओल्वेस् हेव् टु थिङ्क् ध्यानं करोमि
किमर्थं
इट्स् नार्मल् पीपल् डू फर्गेट् सो नो चिन्ता मास्तु भानुमति भगिनि
आं भगिनि सर्वे किमर्थं कार्यालयं गतवन्तः सर्वे कार्यालयं गतवन्तः
कार्यं
कर्तुं
गतवन्तः समीचीनम् अस्तु अनन्तरं भानुमति भगिनि
आं भगिनि आं भगिनि
क्षम्यतां भगिनी तु जस्ट् उक्तवती न परमेश्वरन् महोदय तु जानाति किन्तु पृच्छामि महोदय कृपया वदतु
सः किमर्थं देवालयं गच्छति सः किमर्थं देवालयं गच्छति सः एवं नन्दो देवालयं गच्छति
अस्तु धन्यवादः महोदय कमला भगिनी
ग्रहणी किम् अर्थं पाकशाला गच्छति ग्रहणी भोजनार्थं पाकशाला गच्छति
पाकशालां गच्छति
पाकशालां गच्छति
अस्तु किमर्थं गच्छति पाकशालां गच्छति भोजनार्थं पाकशालां गच्छति समीचीनं विमला भगिनी सर्वेषां कृते
भवती किमर्थं वित्तकोशं गतवती अहं धनं प्राप्तुं वित्तकोशं गतवती
समीचीनं भगिनि धन्यवादः नैना भगिनी भगिनी अन्म्यूट् करोतु नैना भगिनी अस्ति वा भगिनी न श्रूयते अस्तु अहं न जानामि किमर्थं भगि न श्रूयते अस्तु अन्य एकं शब्दः अस्ति परितः उभेतः परितः पुरतः पृष्ठतः सो परितः परितः उपयुज्य एकं वाक्यं रचतु. अद्य तु पूर्व अभ्यासं कुर्मः. मम गृहं परितः कृपया सर्वेषां म्यूट् करोतु. सर्वे म्यूट् करोतु कृपया. अस्तु, धन्यवादः. मम गृहं परितः उद्यानम् अस्ति. मम गृहं परितः उद्यानम् अस्ति. मम गृहं परितः वृक्षाः सन्ति. मम गृहं पुरतः पुरतः कार्यानम् अस्ति. मम गृहं पृष्ठतः एकं नदी अस्ति. पुरतः, पृष्ठतः, वामतः, दक्षिणतः. सर्वे जानन्ति वा?
आं भगिनि.
आम्
अस्तु, धन्यवादः. अनन्या भगिनी, एकं वाक्यं रचयतु कृपया. परितः, पुरतः, पृष्ठतः, वामतः, दक्षिणतः, अधः उपरि
वा?
एकं पदं स्वीकृत्य.
उत्पीटिकायाः उत्पीटिकायाः पुरतः आसन्दः अस्ति. पृष्ठतः भावचित्रम् अस्ति. उत्पीटिकायाः उपरि पुस्तकम् अस्ति. उत्पीटिकायाः अधः बिडालः अस्ति.
उत्पीटिकायाः
वामतः अपि करोमि वा? दक्षिणतः वामतः.
धन्यवादः. सम्यक् अस्ति. श्रीराम महोदय, कृपया वदतु.
मम गृहे उपरि अन्य गृहम् अस्ति. पुरतः मार्गः अस्ति.
पूर्णं वाक्यं वदतु कृपया. मम गृहम्
उपरि अन्य गृहम् अस्ति. मम गृहे पुरतः मार्गः अस्ति. अस्तु,
धन्यवादः महोदय. कमला भगिनी, कृपया वदतु.
मम वामतः कपाटिका अस्ति. मम दक्षिणतः पेटिका अस्ति. मम उपरि विद्युत् दीप अस्ति. मम अध्य भूमि अस्ति.
मम अधः अद्य शुक्रवासरः. अधः भूमि अस्ति.
ओके, विलो इस् अधः.
अधः. अस्तु, धन्यवादः भगिनि. ज्योत्स्ना भगिनी, कृपया वदतु एकं वाक्यं. द्वे वाक्यं.
आल् ट्राय् भगिनी. वृक्ष उपरि फलम् अस्ति. मम विद्यालयं
वृक्षस्य उपरि
फलम् अस्ति. मम विद्यालयं पुरत गृहम् अस्ति. सीताय दक्षिण राम अस्ति.
क्षम्यतां, पुनः वदतु.
सीताय दक्षिण राम अस्ति.
सीतायाः दक्षिणतः रामः अस्ति. सीतायाः यः सीतायाः
दक्षिणात्
रामस्य वामतः सीता अस्ति सीतायाः दक्षिणतः रामः अस्ति
ओके थैंक यू भगिनि
थैंक यू धन्यवादः अस्तु अन्य एकं विषये स्वीकृत्य अभ्यासं कुर्मः कर्त्री अस्ति कर्त्री अस्ति कागदम् अस्ति कागद अस्ति कर्त्री अस्ति वस्त्रमस्ति कर्त्री कर्त्र्याः अहं वस्त्रं कर्तयामि कर्तर्या अहं वस्त्रं कर्तयामि कुञ्जिकायाः अहं तालम् उद्घाटयामि कुञ्जिकायाः तालम् उद्घाटयामि सीवनयन्त्रेण वस्त्रं सीवनं करोमि क्षम्यतां सीवनयन्त्रेण सीवनं करोमि विमानेन सञ्चारणं करोमि लोकयानेन प्रयाणं करोमि दूरवाण्या सम्भाषणं करोमि लेखन्या अक्षराणि लिखामि अत्र तृतीयविभक्ति अस्ति तृतीयविभक्ति उपकरणं विभक्ति अस्ति साधनं भवति क्रियायाः यत् साधनं भवति तस्य तृतीया विभक्ति भवति साधनं भवति हस्तेन जलं पिबामि हस्तेन जलं पिबामि अत्र हस्तः साधनं भवति क्रिया अस्ति जलं पिबामि कथं जलं पिबामि केन जलं पिबामि अहं हस्तेन जलं पिबामि करवस्त्रेण मुखं मार्जयामि करवस्त्रेण मुखं मार्जयामि अस्तु एकं वाक्यं वदतु भगिनि विमला भगिनी कृपया सर्वेषां कृते एकं वाक्यं वदतु
अहं चषकेन पानीयं पिबामि
चषकेन पानीयं पिबामि समीचीनं सङ्गीता भगिनी एकं वाक्यं वदतु सर्वेषां कृते
सीवनयन्त्रेण सीवनं करोति
सीवनयन्त्रेण सीवनं करोति समीचीनं भगिनि अन्यन्ये भगिनि
कुञ्चिकया विना तालम् उद्घाटयं कर्तुं न शक्यते
न शक्यते समीचीनम् अस्तु सर्वेषां कृते परमेश्वर महोदय एकं वाक्यं वदतु कृपया क्षम्यतां नासिका किञ्चित् कोलाहलम् अस्ति
कः शब्दः
श्वसनं करोमि धन्यवादः महोदय भानुमति भगिनी भानुमति भगिनी कृपया वदतु
अहं रेल् यानेन कार्यालयं गच्छामि.
समीचीनम्. अस्तु, अनन्या भगिनी कृपया वदतु.
कङ्कतेन अहं कङ्कतेन अहं केशप्रसादनं करोमि.
कङ्कतेन अहं केशप्रसादनं करोमि. समीचीनं भगिनि, धन्यवादः. अस्तु, सः इति शब्दः अस्ति. यत्र भवति तत्र तृतीया विभक्ति भवति. पिता पुत्रेण सह नगरं गच्छति. पुत्रेण सह नगरं गच्छति. श्रीराम महोदय, कृपया एक वाक्यं रचतु सह उपयुज्य. सह शब्द उपयुज्य एकं वाक्यं रचयतु कृपया.
सः प्रातःकाले रात्रौ च दन्तधावनं दन्तकुर्चेण दन्तधावनं करोति.
कूर्चेन अहं दन्तधावनं करोमि. सः अपि नास्ति. पुत्रेण सह. क्षम्यतां, मम दोषः अस्ति.
अहं मम पुत्री सह पुत्र्याः सह आपणं गच्छ.
पुत्र्या सह अहम् आपणं गच्छामि. ओ, गच्छावः. अत्र तु गच्छामि
भवति.
पुत्र्या सह आपणं गच्छामि. अस्तु, विना शब्दः इति शब्दः अस्ति. भानुमति भगिनी, विना शब्द उपयुज्य एकं वाक्यं वदतु.
विना
लेखन्या विना लेखितुं न शक्नोमि.
लेखन्याः विना न लिखितुं शक्नोमि.
अन्य एकवाक्यं वदतु न.
क्षम्यतां भगिनि, लेखितुं वा लिखितुं?
लेखितुं
लेखितुं लेखितुं
लेखितुं. तत्र गुणः भवति लेखितुं न शक्नोमि. अस्तु,
जलं विना न स्नानं कर्तुं शक्नोमि.
तत्र जलेन विना न कर्तुं शक्नोमि. ज्योत्स्ना भगिनी, एकं वाक्यं वदतु कृपया विना.
अहं चषक विना जलं न पिबामि.
चषकेन विना जलं न
पिबामि.
समीचीनम्. अस्तु, अल्म एक शब्दः अस्ति. अल्म अल्म बालाः तूष्णीं तिष्ठन्तु. अल्म कोलाहलेन अल्पकोलाहलेन तूष्णीं तिष्ठन्तु. अल्म शब्दः निषेधार्थक शब्दः अस्ति. निषेधार्थक शब्दः अस्ति. यत्र प्रयुज्यते तत्र द्वितीया विभक्ति अपि अस्ति भवति. विमला भगिनी कृपया वदतु अल्म शब्द उपयुज्य.
कृपया समयं ददातु.
अल्म अल्मजल्पनेन अयि भग्न्यः अल्मजल्पनेन अल्प अल्म क्षम्यताम् अल्म कोलाहलेन
अलम् अलं जल्पनेन महिलाः न तिष्ठन्ति.
अल्मजल्पनेन महिलाः न तिष्ठन्ति. अलं परमेश्वरन् महोदय सम्यक् सर्वेषां कृते एकं वाक्यं गच्छतु. महोदय सम्यक् न श्रूयते.
सर्वे सन्तोषेण वदन्तु अलं क्रोधेण.
अलम्
क्रोधेन क्रोधेन
क्रोधेन क्रोधेन क्रोधेन अलं क्रोधेन. अस्तु श्रीराम महोदय एकं वाक्यं वदतु.
क्षम्यतां महोदय न जानामि अलं शब्दं न प्रयोजनं.
अलं शब्दः निर्देशार्थकशब्दः अस्ति. निषेधार्थक अल्म यत्र प्रयुज्यते तत्र द्वितीय क्षम्यतां तृतीया विभक्ति अस्ति भवति. यत्र प्रयुज्यते वदतु भगिनि.
अलं परिश्रमेण ज्ञानं न प्राप्नुमः.
परिश्रमेण
ज्ञानं न प्राप्नुमः
न प्राप्नुमः.
अज्ञातं हरि ओं भगिनि अज्ञातं भवति किल अलम् इत्युक्ते सावधानेन. अहमेकं वाक्यं करोमि. सावधानेन धावयतु. अलं सावधानेन
सावधानेन
स्थापयतु.
सावधानेन स्थापयतु अलं
स्थापयतु न धावयतु धावयतु नो चेत् मन्देन मन्देन धावयतु भवति वा.
पूर्णं वाक्यं वदतु भगिनि.
अलं शीघ्रं न मन्देन शीघ्रं विरुद्धार्थः मन्देन वा मन्देन
शनै शनै
शनै हा शनै धावयतु शनै धावयतु अलं धावनेन
अलं धावनेन समीचीनम्
इत्युक्ते आज्ञार्थक अस्ति. आज्ञार्थकशब्दस्य प्रयोगं करणीयम्. सम्यक् वा
समीचीनमस्ति सम्यक् अस्ति
सम्यक् वा
हा सम्यक् अस्ति. एकम् अन्य वाक्यं वदामि सर्वेषां कृते. अस्तु अत्र चिन्तयामि. धनेन कृपया कुत्र गच्छामि. माता क्रोधेन बालकं ताडितवती. माता क्रोधेन ताडितवती बालाः तूष्णीं तिष्ठन्तु तूष्णीं तिष्ठन्तु अल्म 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 ताडनेन अल्म ताडनेन तूष्णीं तिष्ठन्तु अल्म ताडनेन अल्म तण्डेन अल्म जल्पनेन अल्म शोकेन अल्म सहसेन अल्म धावनेन अल्म धावनेन सहसेम शोकेन आज्ञार्थम् आज्ञार्थम् अत्र आगच्छति भोः भो मित्र अल्म अतिविस्तारेण अम्ब अल्म शोकेन बालः क्षमतां बाल अल्म सहसेन अल्म धावनेन सहोदरः अल्म धावनेन भगिनी अल्म अविवेकेन सो आज्ञाभावार्थं तत्र सर्वे वाक्यानि तत्र आज्ञार्थं शब्दः अस्ति भाव आज्ञार्थं भावः अस्ति लोट्लकारः भावः अस्ति यदि इच्छन्ति चेत् तर्हि पुनः अन्य आगामी पाठे पुनः अभ्यासं कुर्मः तत्र विंशतिवाक्यानि कृपया लिखन्तु विंशतिवाक्यानि अल्मशब्द उपयुज्य विंशतिवाक्यानि प्रेषयतु माम् अनन्तरं पुनः अभ्यासं कुर्मः कोऽपि शङ्का अस्ति तत्र तदा वयं निवारणं कुर्मः अस्तु अनन्तरम् एक अन्य विषये चर्चां कुर्मः दानक्रिया अस्ति तत्र यत्र दानक्रिया अस्ति तत्र यस्मै वयं किमपि दद्मः तस्य चतुर्थी विभक्तिः भवति चतुर्थी विभक्तिः कुत्र भवति दानक्रियः तत् भावः यत्र दानक्रियः भावः अस्ति तत्र चतुर्थी विभक्तिः अस्ति भवति पुत्री अस्ति शाटिका अस्ति पुत्रे शाटिका ददामि मित्राय पुस्तकानि ददामि मित्राय सेविकै उपनयनं ददामि भग्नै कण्ठाहारं ददामि तत्र चतुर्थी विभक्ति दानं क्रियः दानं भावः तत्र अस्ति यत्र तत्र चतुर्थी विभक्ति भवति रोचते यत्र अस्ति तत्र रुचिः अस्ति यत्र तत्र एव चतुर्थी विभक्तिः भवति एकं रोचते शब्द उपयुज्य एकं वाक्यं वदतु अनन्तरं वयं समाप्यामः पञ्चमी षष्ठी सप्तमी विभक्ति अग्रे आगामी पाठे वयम् अभ्यासं कुर्मः. अस्तु भगिनी, विमला भगिनी कृपया वदतु एकं रोचते उपयुज्य.
मह्यं मधुरं रोचते.
समीचीनं. मह्यं मधुरं रोचते. रामाय मधुरं रोचते. बालकाय मधुरं रोचते. महिलायै मधुरं रोचते. महिलायै
आभरणानि रोचते. महिलायै सर्वं रोचते.
शाटिका अपि रोचते. गुरुवे धीमताः छात्राः रोचते. गुरुवे पित्रे की पुत्रं पित्रे पुत्रीं रोचते. क्षम्यतां, पुत्रीं पुत्रीं रोचते. यू केन् से देट् बिकास् नार्मलि फादर् लैक्स् डोटर्.
भगिनि, कर्मपद इन् कम्स् इन् फस्ट् प्रथमाभक्ति, करेक्ट्? इन् चतुर्थी भक्त्यां
मधुरं रोचते.
पित्रे पुत्री रोचते.
पुत्री रोचते.
मह्यम् आनन्दः अभवत्. सो दट् इन् दट् केस् आनन्दः कम्स् इन् प्रथमा भक्ति, करेक्ट्?
आनन्दः अभवत्, दट्स् डिफ़्रेण्ट् बिकास्
आनन्दः इस् इन् प्रथमा भक्ति.
मधुरं रोचते.
मधुरं तु क्युकि
मधुरं नपुंसकलिङ्ग भवेत्. नो चेञ्ज्, करेक्ट्? नो चेञ्ज्.
दट्स् नो चेञ्ज्. लेकिन् वेन् यु आर् सेयिङ्ग् इन् पुल्लिङ्ग ओर् स्त्रीलिङ्ग देन् क्रियापदं कर्मपदं कथमस्ति?
कर्मपदविभक्ति
भवति.
द्वितीयविभक्ति कर्तृपद चतुर्थीविभक्ति. कर्मपद द्वितीयविभक्ति भवति किल?
कर्मपदं तु सर्वदा द्वितीयविभक्ति भवति.
धन्यवादः. पुत्रीं तर्हि पित्रे पुत्रीं रोचते भवति.
पुत्रीं रोचति.
पुत्रीं रोचते न?
पुत्रीं रोचते.
पित्रे पुत्रीं रोचते.
धनिकाः धनिकः मित्राय फलं ददाति. फलं तत्र द्वितीयविभक्ति अस्ति. पति पत्न्यै आभूषणं यच्छति. आभूषणमपि द्वितीयविभक्ति एव अस्ति. तत्र अग्रजः पत्न्यै वस्त्रं ददाति. वस्त्रं निपुंसकलिङ्गे पुनः आगच्छति, किन्तु तत्र एव द्वितीयविभक्ति अस्ति. महिलायै छत्रं ददाति सखी. सखी प्रथमाविभक्ति अस्ति. कर्तृपदं महिलायै चतुर्थी भवति. छत्रं द्वितीयविभक्ति अस्ति. ददाति क्रियापदम् अस्ति. सखी ददाति. सखी छत्रं ददाति. सखी मित्रै छत्रं ददाति.
अण्डर्स्टुड्
टु क्रियापदं तो पॉसिबल नहीं है ना सखी छत्रं ददाति जनाः भिक्षुकाय नाणकं ददाति जनाः प्रथमविभक्ति बहुवचनं कर्तृपदं नाणकं द्वितीयविभक्ति एकवचनं ददाति क्रियापदं भिक्षुकाय चतुर्थी विभक्ति अस्ति सादृशः रोचते अपि रोचते चतुर्थी विभक्ति क्रियापदमस्ति पिता कर्तृपदमस्ति पुत्री द्वितीया विभक्ति अस्ति
भगिनी भगिनी जनाः भिक्षुकाय नाणकं ददाति सी हियर् नाणकं द्वितीयविभक्ति देन् जनाः भिक्षुकाय टु वर्ड्स् आर् देर् करेक्ट्
जनाः भिक्षुकाय नाणकं ददाति क्षम्यतां ददति
ददति दट्स् ओके क्रियापदम् ऐ अण्डर्स्टूड् ये टु वर्ड्स् हेव् कम् करेक्ट् जनाः भिक्षुकाय कर्तोतर् कर्तरि वि हेव् टु थिङ्क्
न भिक्षुकाय चतुर्थी विभक्ति अस्ति न जनाः ददति जनाः ददति जनाः नाणकं ददति
वि केन् हेव् मोर् देन् वन् कर्तरिपदं
भवती का चिन्तयति अहं न जानामि कृपया उदाहरणं ददातु
इन् दिस् सेण्टेन्स् टु जनाः इस् देर् भिक्षुकाय इस् देर् नाणकम् इस् देर् ददति इस् देर् ददति क्रियापदं नाणकं इस् इन् द्वितीयाभक्ति दिस् इस् कर्मपदं कर्तरिपदं भिक्षुकाय वाट् अबौट् जनाः इट् इस् काल्ड् एस् इट्स् नेम्
भिक्षुकाय कर्तरिपदं कथम् अस्ति
वाट् पदम् इट् इस् देट् इस् हर् क्वश्चन्
चतुर्थी विभक्ति
अस्ति नो इट्स् ओके बट् पदं वैस् वाट् इट् इस् नाट् नो कर्तरि
तत्र
जनाः कर्तरिपदं देन् भिक्षुकाय इस् मीन्स् वाट् वी काल् इट् इस्
हा तो इस् दानं क्रिया अस्ति दानं क्रिया
पदं
हा तु ऐ डोण्ट् नो इट्स् चतुर्थी विभक्ति देर् इस् चतुर्थी विभक्ति इस् अ रीज़न् फोर् इट् देट् फोर् सम्थिङ्ग् यु कान् से इन्
इन् दिस् महिलायै सखी छत्रं ददाति सेण्टेन्स् वैस् इस् ओके वी अण्डर्स्टाण्ड् बट् वाट् वि काल् ईच् वर्ड् एस्
लेट् मी फैण्ड् औट् बिकास् ऐ डोण्ट् थिङ्क् देर् इस् अ नेम् डैरेक्ट्लि फोर् इट्स् दानं क्रिया अस्ति सो
इट्स् भगिनि फोर्थ् केस् बेनिफिशरि न वेन् सम्बडि बेनिफिट्स्
हा इट् इस् बेनिफिशरि बट् शी इस् आस्किङ्ग् समथिङ्ग् डिफ्रेण्ट्
Oh, okay. Sorry, I tried to...
We break the sentence into Kriya Padam, Kartri Padam and Karma Padam. So,
For example, in one sentence, you have... For example, imagine a sentence. The sentence is complete with the Karta and Kriya Padam only. So, that is finished. Aham Karomi, ya just Karomi. सेण्टेन्स् इस् कम्प्लीट् वाक्यम् इस् पूर्णं वाक्यं पूर्णमस्ति देन् आल् दीस् अदर् थिङ्ग्स् दीस् आर् एड् आन्स् फार् एक्साम्पल् रामस्य पुत्र लव् अस्ति सो रामस्य कः पदमस्ति
षष्ठी भक्ति रामस्य राम इस् कर्तरिपदम्
रामः कथं कर्तृपदमस्ति? रामस्य पुत्रः लवः अस्ति. लव् अस्ति, लव् इस् कर्तृपदं. रामस्य कर्तृपदं नास्ति, रामस्य एक रिलेशन् सम्बन्धः अस्ति एव.
ओके, वि केन् नाट् से, वि केन् से ओन्ली सम्बन्धः.
सम्बन्ध, सो यु काण्ट् से देट् इस् ए कर्तृपदं. कर्तृपदं सर्वदा प्रथमाविभक्ति अस्ति. कर्तृ, सो देट् इस् I don't know if there is a special name for it in terms of padams, but that is only sambandha asti. Okay, we will continue the discussion with the other vibhaktis as well. I hope it was useful.
Yes. Yeah, Bhagini, we learned a lot today.
So the level is increased.
So, Shanti Mantra Kurma.
हरि ओम् भगिनि. हरि ओम्
सर्वे मिलित्वा. हरि ओम् शान्ति मन्त्र.
आगामि सप्ताहे अनेकवारं पुनरावर्तनं करोमि.
पुनरावर्तनं कुर्मः.
धन्यवादः.
धन्यवादः.
रोचते.
सर्वे सर्वे सन्तु निरामयाः. सर्वे वेदाणि पश्यन्तु मा कश्चित् दुःखभाग्भवेत्.
धन्यवादः.
धन्यवाद
भगिनी. थैंक यू सो मच.
धन्यवादः.
आगामि सप्ताहे
पुनर्मिलामः.
शुक्रवासरे
पुनर्मिलामः.
मिलामः. धन्यवाद भगिनी. थैंक यू.
थैंक यू.